ॐ सहस्रशीर्षा पुरुषस्सहस्राक्षस्सहस्रपात् स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् उतामृतत्वस्येषा नो यदन्नेनातिरोहति एतावानस्य महिमातो ज्यायांश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि त्रिपादूर्ध्व उदयेत्पुरुषः पादोऽस्येह भवत्पुनाः ततो विश्वं व्यक्रामत्साशनानशने अभि तस्माद्विराळजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्मत वसन्तो अस्यासीदाज्यं ग्रीष्म इध्म शरद्धविः तं यज्ञं बर्हिषि प्रोक्षन् पुरुषं जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ए तस्माद्यज्ञात् सर्वहुतः संभृतं पृषदाज्यं पशून्तांश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ए तस्माद्यज्ञात् सर्वहुतरुचः सामानि जज्ञिरे छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत तस्मादश्वा अजायन्त एकेचो भयादतः गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयाः यत्पुरुषं व्यदधुः कतिधाव्यकल्पयन् मुखं किमस्य कौ बाहू का ऊरुपादा उच्येते ब्राह्मणोऽस्य मुखमासीद्बाहुराजन्यः कृतः ऊरु तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत चन्द्रमा मनसो जातश्चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षं शीर्ष्णोद्यौः समवर्तत पद्भ्यां भूमिर्दिशश्रोत्रात्तथा लोकाङ् अकल्पयन् सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुं यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ते हनाकं महिमानः सचन्त यत्र पूर्वे साध्या सन्ति देवाः ॐ शान्तिः शान्तिः शान्तिः।